एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तुत्री रत्नावली शर्मा। उपप्रधान नगरीय विकास मन्त्री प्रकाशमान सिंह भाषते विधि सम्मततया संविधान संशोधनस्य प्रक्रिया अग्रे वर्धते। त्रिंशस्य आदिवासी दिवसस्य अवसरे नेपाल आदिवासी जनजाति महासंघेन ह्य काष्ठमण्डपे आयोजिते कार्यक्रमे उपप्रधानमन्त्री सिंह संविधान संशोधनं बहुमतस्य आधारेण न अपितु विधिसम्मत प्रक्रियातः विधीयते येन आदिवासी जनजातीनाम् अधिकाराः सम्बोधयिष्यन्ते इति समाश्वासयत्। उपप्रधानमन्त्री सिंह समाजे व्याप्तानां प्रश्नानां असन्तोषानां च सम्बोधनाय संविधान संशोधनं विधास्यते इति समस्पष्टयत्। महासंघस्य अध्यक्ष गेल्जे लामा शेर्पा जलवायु परिवर्तनेन महतीनां परियोजनानां कारणेन च आदिवासीनां स्वस्थानात् विस्थापनाय बाध्या जायमानाः सन्ति इति विषये सर्वकारस्य ध्यानम् आकर्षयत्। नेकपा एमाले दलस्य महासचिव शंकर पोखरेल आर्थिक विकासाय समृद्धये च प्राकृतिक स्रोतसां सदुपयोगाय बलं ददाति। एतद्विक्रमवर्षीयस्य सामुदायिक वन दिवसस्य अवसरे नेकपा एमाले दलस्य केन्द्रीय वन वातावरण विभागेन ह्य काष्ठमण्डपे आयोजिते कार्यक्रमे महासचिव पोखरेल वृत्त्युपार्जनानां नूतन अवसरस्य सर्जनत्वेन वनानां अन्य प्राकृतिक स्रोतसां च व्यवस्थापने संरक्षणे च विहितयोः सतो नेपालेन शीघ्र मेव आर्थिक समृद्धि अधिगन्तुं शक्यते इति अवोचत। कार्यक्रमे वन वातावरण मन्त्री ऐन बहादुर शाही ठकुरी पश्चात्तन समये वर्धमानं काष्ठजन्य सामग्रीणाम् आयातं प्रतिस्थापयितुं सर्वकारेण नैज क्षेत्रेण मिलित्वा कार्यं विधातव्यमिति प्रावोचत्। कार्यक्रमे रक्षा मन्त्री मानवीर राई वनेषु असंरक्षितेषु सत्सु मानवानाम् अस्तित्वे एव संकटः उत्पद्यत इति चर्चयन् वातावरणस्य संरक्षणाय नेपाल सर्वकारेण पारम्परिक प्रजातेः वनस्पतीनां संरक्षणाय प्रवर्धनाय च बलं प्रदेयम् इति प्रत्यपादयत्। पूर्व वनमन्त्री नेपाली कांग्रेस दलस्य नेता च शंकर भण्डारी वन प्राकृतिक स्रोतसां प्रयोग सम्बद्धासु अन्तर्राष्ट्रिय सन्धि संविदासु विद्यमानानि प्रावधानानि नेपालस्य अवस्थायाः आवश्यकतायाश्च प्रतिकूलानि वर्तन्ते इत्यतः वनक्षेत्रात् नेपालेन उचितः लाभः ग्रहीतुं न शक्तः इति चर्चयन् तथाविध प्रावधानानां राष्ट्रिय हितानुकूलतया परिमार्जनाय प्रयासः विधेय इति बलं प्रादात्। संचार सूचना प्रविधि मन्त्री पृथ्वी सुब्बा गुरूङ कथयति रेडियो नेपालेन श्रोतृणां विश्वासं विजित्य विश्वासयोग्य संचार माध्यमस्य रूपेण आत्मानं स्थापनीयम्। संचार मन्त्री गुरूङ रेडियो नेपालस्य पोखरावर्तिनः प्रादेशिक प्रसारण कार्यालयस्य पूर्वेद्युः निरीक्षणस्य क्रमे रेडियो नेपालाय मन्त्रालयस्य पक्षतः प्रदातव्यानाम् आवश्यक जनशक्तेः स्रोतसः नीतिगत व्यवस्थायाश्च कृते आत्मनः तत्परता स्थिति प्रावोचत्। मन्त्री गुरूङ अधुनापि रेडियो नेपालः प्राक्तनाधिनियमानुसारेणैव सञ्चाल्यमानो वर्तते इत्यतः अतः परं नूतन नीतिं निर्माय तदनुसारेण सञ्चालयिष्यते इति उदैरयत्। तदवसरे पोखरावर्तिनः रेडियो नेपालस्य प्रादेशिक कार्यालयस्य प्रमुखः सुरेन्द्र प्रसाद यादवः प्रसारण कार्यालयस्य भौतिकावस्थायाः प्रसारणावस्थायाश्च विषयान् संचार मन्त्रिणः विज्ञापितवान् आसीत्। मन्त्री गुरूङ ह्य राष्ट्रिय समाचार समितेः पोखरावर्तिनः गण्डकी प्रदेश कार्यालयस्य च निरीक्षणं व्यदधात्। तदवसरे मन्त्री गुरूङ राष्ट्रिय समाचार समितेः नाम्नि आराश्रम विद्यमानानां भूमि प्रभृतीनां भौतिक सम्पदां सदुपयोगाय योजनायाः निर्माणम् आवश्यकमस्तीति चर्चयन् समितेः संस्थागत सुदृढीकरणाय मन्त्रालयस्य स्तरात् यथासम्भवं सहयोगाय प्रतिबद्धतां व्यक्तवान्। स्वास्थ्य जनसंख्या मन्त्री प्रदीप पौडेल भाषते नागरिकेभ्य सहजतया स्वास्थ्यसेवायाः प्रवाहस्य विषयः सर्वकारस्य प्राथमिकतायां स्थापनीयः। नेपालगंजवर्तिनी भेरी चिकित्सालये पूर्वेद्युः नवनिर्मितं भवनं एमआरआई सेवाञ्च उद्घाटयन् मन्त्री पौडेलः साम्प्रतिक प्रथम विषयः ध्यानदृष्टिश्च नागरिकेभ्य सहजतया सेवासौविध्यानां प्रदानमस्तीति अवदत्। तदवसरे स्वास्थ्यमन्त्री पौडेलः स्वास्थ्य सुरक्षण कार्यक्रमः अतिरिक्तः व्यवस्थितः प्रभावकारी च सम्पादयिष्यते इति प्रतिबद्धतां व्यक्तवान्। दौरान मन्त्री पौडेल समेषां समावेशनत्वेन अस्य परिधे वर्धनस्य कार्यं विधीयमानमस्तीति असूचयत्। कार्यक्रमे मन्त्री पौडेल मातृ सुरक्षा कार्यक्रमस्य प्रभावकारिण सम्पादनाय योजना निर्मीयमाणास्तीति च अज्ञापयत्। नेपाली कांग्रेस दलस्य केन्द्रीय कार्य समितेः ह्यस्तनोपवेशन मित्रराष्ट्रे बंगलादेशे कतिचित् दिवसेभ्य विकसितः घटनाक्रमः दलेन निकटात् निरीक्ष्यमाणो वर्तते इत्युक्त्वा नेपाली कांग्रेस दलं सदैव लोकतान्त्रिकस्य शान्तिपूर्णस्य च बंगलादेशस्य पक्षे अस्ति इति स्पष्टीकृतं वर्तते। सानेपावर्तिनी दल केन्द्रीय कार्यालय पूर्वेद्यः उपविष्टेन उपवेशेन नेपाली कांग्रेस दलेन बंगलादेशस्य नागरिकाणां लोकतान्त्रिकाधिकारेभ्यः मानवाधिकार कार्यभ्यश्च उच्च सम्मानः विधीयमानमस्तीति उक्त्वा बंगलादेशिक नागरिकाणाम् इच्छानुसारेण लोकतान्त्रिकीं सांविधानिकीं च प्रक्रियाम् अविलम्बनेन प्रारभ्य राजनीतिकं संक्रमणं शीघ्रं अन्तं भविष्यति इति विश्वासः गृहीतोऽस्तीति ज्ञापितं वर्तते। सहैव उपवेशेन बंगलादेशस्य अन्तरिम सर्वकारस्य नवनियुक्ताय प्रमुखाय मोहम्मद युनिस इत्यस्मै हार्दिक वर्धापनं विज्ञाप्य सफल कार्यकालस्य शुभकामना च व्यक्तास्तीति दलेन प्रकाशितायां विज्ञप्तौ उल्लिखितं वर्तते। एवमेव बंगलादेशे विहितस्य विरोधस्य प्रदर्शनस्य क्रमे अल्पसंख्यकेषु तत्रापि विशेषतः हिन्दू बौद्ध धर्मावलम्बिषु विहितस्य आक्रमणस्य घटनां प्रति चिन्ताम् अभिव्यज्य धार्मिक सहिष्णुतां सामाजिकं सद्भावञ्च संस्थापयितुम् अथ च धार्मिकाल्पसंख्यकानाम् अधिकारान् संरक्ष्य शान्तिपूर्ण वातावरणं स्रष्टुं बंगलादेश सफलो भविष्यतीति नेपाली कांग्रेस दलेन विश्वास धृतोऽस्तीति विज्ञप्तौ उल्लिखितं वर्तते। उपवेशे प्रस्तुतान् विभिन्नान् प्रस्तावान् आधृत्य धारणाया उपस्थापनस्य क्रम संचलदस्तीति नेपाली कांग्रेस दलेन ज्ञापितम् वर्तते। नेपाली कांग्रेस केन्द्रीय कार्यसमितिः अपर उपवेशः श्रावणस्य सप्तविंशे दिवसे श्वः रविवासरे पूर्वाह्नस्य एकादशवादने दलस्य केन्द्रीय कार्यालये पुनः अवस्था। न्याय परिषदः ह्यस्तनोपवेशेन जनकपुरवर्तिनः उच्चन्यायालयस्य वीरगंजवर्तिनः अस्थायी न्यायपीठस्य न्यायाधीशं डॉ रत्नबहादुर बागचन्द इत्यमुं पोखरावर्तिनः उच्चन्यायालयस्य मुख्य न्यायाधीशपदे नियोक्तुं परामृष्टमस्ति। प्रधान न्यायाधीशस्य विश्वम्भर प्रसाद श्रेष्ठस्य अध्यक्षतायां ह्य उपविष्टेन परिषदः उपवेशेन डॉ बागचन्द इत्यमुं नियोक्तुं निर्णीतमस्तीति न्याय परिषदः प्रवक्ता अशोक कुमार छेत्री असूचयत्। इति समाचारः।